अथ पञ्चमस्कन्धः विंशतितमं दशकम् ऋषभयोगीश्वरचरितवर्णनम्। प्रियव्रतस्य प्रियपुत्रभूताग्निध्रराजादुदितो हि नाभिः त्वाम् दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यैकृतयज्ञकर्मा। अभिष्टुतस्तत्र मुनीश्वरैस्तम् राज्ञस्वतुल्यम् सुतमर्थ्यमानः स्वयम् जनिष्येऽहमिति ब्रुवाणः तिरोदधाबर्हिषि विश्वमूर्ते नाभिप्रियायामथ मेरुदेव्याम् त्वमंशतो भोर्षभाभिधानः। अलोकसामान्यगुणप्रभावप्रभावितासेषजनप्रमोदः त्वयि त्रिलोकी भृतिराज्यभारम् निधाय नाभिः सह मेरुदेव्याम् तपोवनम् प्राप्य भवन्निषेवी गतः किलानन्दपदम् पदम् ते। इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्षनास्मिन्न जनाभवर्षे यदा तदा त्वम् निजयोगशक्त्या स्ववर्षमेन द्वयदासुवर्षम् जितेन्द्रदत्ताम् कमनीम् यज्जयन्तीम् अथो द्वहन्नात्मरताशयोऽपि अजीजनस्तत्र शतम् तनूजान् येषाम् क्षितीशो भरतोऽग्रजन्मा। न वाभवन् योगिवरानवान्ये त्वपालयन् भारतवर्षखण्डान् सैकात्वशीतिस्तव शेषपुत्राः तपोबलाद्भोऽसुरभूयमीयुः। उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् स्वयम् गतः पारमहंस्य वृत्तिम् अधा जडोन्मत्तपिशाचचर्याम्। परात्मभूतोऽपि परोपदेशम् कुर्वन् भवान् सर्वनिरस्यमानः विकारहीनो विचचारकृत्स्नाम् महीमहीनात्मरसाभिलीनः। शयूव्रतम् गोमृगकाकचर्याम् चिरम् चरन्नाप्यपरम् स्वरूपम् दवाहृताङ्गः कटकाचले त्वम् तापान्ममापाकुर्वातनाथ। ॐ नमो भगवते वासुदेवाय।